इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधी तिवारी। आदौ मुख्य वार्ताः। अद्य नवदिल्ल्यां नवनिर्मितस्य अनुसन्धान राष्ट्रियानुसन्धान प्रतिष्ठिका इत्येतस्य प्रथम शासी मण्डल सभायाः अध्यक्षता प्रधानमन्त्रिणा कृता। केन्द्रीयः गृहमन्त्री अमितशाहः अवोचत् यत् आगामीषु पञ्चवर्षेषु आन्तर्जालिक अपराधस्य निवारणार्थं 5,000 यावत् अन्तर्जाल परिरक्षकान् प्रशिक्षयितुं केन्द्रस्य योजनास्ति इति। उत्तराखण्ड राज्यस्य सोनप्रयागस्य समीपे केदारनाथ राष्ट्रिय राजमार्गे प्रचण्ड वृष्ट्या उद्भूतेन भूस्खलनेन च 5 तीर्थयात्रिणः मृताः, 3 च व्रणिताः अभवन्। भारतेन संयुक्त राष्ट्रस्य स्थायी सदस्यताम् इतोपि अधिकं प्रतिनिधित्वपूर्णं निर्मातुम् आह्वानं कृतं, विशिष्टरूपेण अफ्रीकादेशस्य सहभागितया सह इति। अपि च वियतनामदेशीयेन कृषि ग्रामीण विकास मन्त्रालयेन प्रख्यापितं यत् प्रचण्ड चक्रवातात् यागी इत्यस्मात् मृतकानां संख्या आहत्य 65 जाता। इदानीं वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना वैश्विक समस्यानां स्थानीय समाधानस्य विषये अवधानं दत्तम्। अद्य नवदिल्ल्यां नवनिर्मितस्य अनुसन्धान राष्ट्रियानुसन्धान प्रतिष्ठिका इत्येतस्य प्रथमस्य शासीमण्डल सभायाः अध्यक्षता प्रधानमन्त्रिणा कृता। सभायां प्रधानमन्त्रिणा अनुसन्धान व्यवस्थायाः मार्गस्य बाधकान् चिन्वन्तु तथा च एतासां समस्यानां निवारणार्थं उपायान् कर्तुम् आदिष्टम्। असौ अवदत् यत् विद्यमानानां समस्यानां नूतनानि समाधानानि अन्वेष्टुं संशोधनं केन्द्रितं भवेदिति। संस्थानाम् उन्नयनस्य मानकीकरणस्य आह्वानं च प्रधानमन्त्रिणा सूचितम्। केन्द्रीयः गृहमन्त्री अमितशाहः अद्य आन्तर्जालिक सुरक्षा राष्ट्रियसुरक्षायाः अभिन्नः भागः इति अवोचत्। असौ अकथयत् यत् आगामीषु पञ्चवर्षेषु आन्तर्जालिकापराधस्य निवारणार्थं 5,000 यावत् अन्तर्जाल परिरक्षकान् प्रशिक्षयितुं केन्द्रस्य योजनास्ति इति। नवदिल्ल्यां भारतीयान्तर्जालिकापराध समन्वय केन्द्रस्य प्रथमं स्थापनादिवस समारोहं सम्बोधयन् असौ एतद् उक्तवान्। श्रीशाहः अत्रावसरे न्यगादीत् यत् आन्तर्जालिक सुरक्षां विना देशस्य प्रगतिः न शक्यते इति। आन्तर्जालिकापराधस्य सीमा नास्ति इत्यनेन कारणेनापि असौ सर्वान् हितधारकान् अस्य विपद्निवारणे एकत्र आगन्तुम् आदिष्टवान्। विभिन्नेषु क्षेत्रेषु अन्तर्जालस्य वर्धितस्य उपयोगस्य विषये प्रकाशयन् मन्त्री अवदत् यत् देशे प्रतिदिनम् आंकिकीय व्यवहारस्य आंकिकीय दत्तांशस्य उपयोगः च वर्धमानो वर्तते, येन हि आन्तर्जालिक सुरक्षायां संलग्नानां जनानां दायित्वानि वर्धितानि सन्ति। श्रीशाहः अग्रे अपि अवदत् यत् सद्यः प्रवर्तितेषु त्रिषु नूतनापराधिक विधिषु देशे आन्तर्जालिकापराध सम्बद्ध समस्यानां निवारणार्थं पर्याप्तानि प्रावधानानि अपि सन्ति। अस्मिन् अवसरे मन्त्री आन्तर्जालिकापराधात् रक्षणार्थं प्रमुखान् उपक्रमान् उद्घाटितवान् तथा च साइबर फ्रॉड मिटिगेशन केन्द्रम् इति राष्ट्राय समर्पितवान्। उत्तराखण्ड राज्यस्य उत्तरे भागे गतरात्रौ केदारनाथ राष्ट्रिय राजमार्गे सोनप्रयागस्य समीपे प्रचण्ड वृष्ट्या उद्भूतेन भूस्खलनेन च 5 तीर्थयात्रिणः मृताः, 3 च व्रणिताः अभवन्। राष्ट्रियापद्मोचनबलं राज्यापद्मोचनबलं स्थानीयारक्षकाः च संयुक्त सहायोद्धार कार्याणि प्रारब्धवन्तः। सर्वे शवाः च प्राप्ताः। व्रणिताः तीर्थयात्रिणः पीएचसी इत्यस्मिन् केन्द्रे उपचाराधीनाः वर्तन्ते। मृतकेषु मध्यप्रदेशस्य 3, गुजरातस्य 1, नेपालस्य च 1 जनः अस्ति। मुख्यमन्त्री पुष्करसिंहधामी इत्ययं दुर्घटनायाः विषये गभीरं दुःखं प्रकटितवान्। भारतेन संयुक्त राष्ट्रस्य स्थायि सदस्यताम् इतोपि अधिकं प्रतिनिधित्वपूर्णं निर्मातुम् आह्वानं कृतं, विशिष्टरूपेण अफ्रीकादेशस्य सहभागितया सह इति। भारतेन उल्लिखितः यत् सुरक्षा परिषदि राजनीतिक मतभेदः शान्ति अभियानानि प्रभावितानि कुर्वन्ति ह्यः सुरक्षा परिषदि स्वीयं प्रथमं सम्बोधयन् संयुक्तराष्ट्रे भारतस्य नवनियुक्तः स्थायी प्रतिनिधिः पी हरीशः कथितवान् यत् सुरक्षा परिषदि राजनीतिक सामञ्जस्य अल्पतास्ति येन हि संयुक्तराष्ट्रस्य शान्ति अभियानेषु प्रतिकूल प्रभावः पतितः प्रियाः श्रोतारः संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति विदेशमन्त्री एस जयशंकरः अद्यारभ्य जर्मनीदेशस्य द्विदिवसीय यात्रां प्रति याति डॉ जयशंकरः द्विपक्षीय सम्बन्धानां सम्पूर्ण आयामानां समीक्षायै अथ च सहयोगस्य अवसरम् अन्वेष्टुं बर्लिन नगरे जर्मनीदेशीयेन विदेशमन्त्रिणा अन्यैः प्रमुखैः नेतृभिः च सह मेलनं करिष्यति अत्रावधौ अस्माकं वार्ताहरेण सूचितं यत् जर्मनी देशः भारतस्य महत्वपूर्ण व्यापारिक सहकार्येषु अन्यतमो विद्यते अपि च प्रत्यक्ष विदेशी निवेशस्य प्रमुखस्रोतो अपि वर्तते इतः प्राक् ह्यः डॉ जयशंकरः रियादनगरे रणनीतिक वार्तायाः कृते भारत खाति सहयोग परिषदः संयुक्तस्य मन्त्रिस्तरीयस्य उपवेशनस्य सहाध्यक्षतां विहितवान् अनेन अत्रावसरे सम्बद्धाः सदस्याः सम्प्रार्थिताः यत् तैः पारस्परिक भविष्याय निवेशः समर्थनं च भवितव्यम् इति असौ भाषितवान् यत् गाजाक्षेत्रस्य वर्तमानस्थितिः निश्चप्रचम् भारतस्य बृहत्तमा व्याकुलता वर्तते भारतम् आतंकवादीनां कृत्यानामपि निन्दां करोति वियतनाम देशीयेन कृषि ग्रामीण विकास मन्त्रालयेन प्रख्यापितं यत् प्रचण्ड चक्रवातात् यागी इत्यस्मात् जलौघ संकटात् भूस्खलनाच्च अद्य प्रातः देशस्य उत्तरभागे मृतकानां संख्या आहत्य 65 जाता तत्रैव विलुप्तजनानां समग्रसंख्या 39 जातास्ति इति सूच्यते इमां दुःखवहां घटनाम् अवलोक्य वियतनाम देशीयः प्रधानमन्त्री फाम मिन चिन्ह इत्येषः 4 मिलियन डॉलर मितस्य साहाय्य राशिरपि घोषणां कृतवान् भारतस्य रक्षासचिवः गिरिधर अरमाने इत्येषः श्वः फिलीपींस देशस्य राजधान्या मनीला नगरे भारत फिलीपींस संयुक्त रक्षा सहयोग समित्याः पञ्चमस्य उपवेशनस्य सहाध्यक्षतां करिष्यति तदनु उपवेशनस्य अस्य सहाध्यक्षतां फिलीपींस देशस्य राष्ट्रिय रक्षा मन्त्रालयस्य वरिष्ठः अनुसचिवः इरिनियो क्रूज एस्पिनो इत्येषः अपि करिष्यति हरियाणा राज्ये आगामिने विधानसभा निर्वाचनाय 90 आसनेभ्यः प्रायशः 35% यावत् प्रत्याशिभिः नामांकनपत्रं प्रपूरितम् एषा नामांकन प्रक्रिया मासस्यास्य 12 पर्यन्तं प्रचलिष्यति भाजपेति दलेन साम्प्रतं यावत् 67 प्रत्याशीनां नामानि घोषितानि अपरत्र कांग्रेस दलेनापि अधुना यावत् 41 प्रत्याशीनां सूची प्रसारिता अपि च क्रीडावार्तायां पेरिस पैरालम्पिक क्रीडा कुम्भतः समागतानां भारतीय क्रीडकानां अद्य नवदिल्ल्याः इन्दिरा गांधी विमानस्थानके पुष्पमालाभिः वाद्ययन्त्रध्वनिना सह सोत्साहं स्वागत सत्कारो जातः देशस्य कृते इदम् उल्लेखनीयम् अभियानम् आसीत् यस्मिन् 7 सुवर्णपदकानि 9 रजतपदकानि 13 कांस्यपदकानि समेत्य पदकानां सकलसंख्या 29 जाता या हि कीर्तिमद्रूपेण अस्माकं सम्मुखे समंकिता इति वार्ताः